2.2. From here we can start. Bhutakalam. Smarati va? Abhyasam grahapatam sarve krutavantah. Most of you had done. Patati, patitavan, patitavati.
Good morning. This is Ajay Srinivas joining in.
Astu Mahodaya. Is this your first class?
No.
Okay. I mean, you join in other teacher's class and how is it?
Yeah.
Okay. Okay, Mahodaya. You can mute yourself. So, patati, patitavan, patitavati. Gachati, gatavan, gatavati. Maratiwa, I still hear a lot of noise. Uma Bhagini, please, can you
yes,
please
ma'am.
Go on mute?
Yeah, I'm in mute only, ma'am.
No, you're talking. No, you're not on mute. Please mute yourself. A lot of background noise. Dhanyavad. Ekanishat. Ha. Tra. So last week we have seen patati, patitavan, patitavati, patitavantah, patitavatyah. Most of you had done your homeworks also. And still we need to complete Bhutakalah. More is there. Natra, asti janati, pustakam asti. Pustakani santi, ekam pustakam asti, ekavachanam. Pustakani santi, bahuvachanam. The same way, asmi, aham asmi, aham sangeeta asmi, aham grihni asmi, aham shikshika asmi. So that is asmi. Aham asmi. Vayam. Vayam bharatiyah smaha. We all. Vayam samkrita priyah smaha. We all. Vayam. When we use vayam, it should be smaha. Vayam smaha. Anantaram asit asti. Asit. Bhutakala prayogah. Ekavachanam. Hyah. Somavasarah asit yesterday. Hyah karyakramah asit. Hyah vidyalayah na asit. Iti asan samana bahuvachanam. Balakah grihe asan. So Bhanuvasare balakah balakah grihe asan. Sunday children were at home. Bahuvachanam. Asit ekavachanam. Asan bahuvachanam. Anantaram asam asma. Atra aham asmi present tense. Aham asam. Aham asam bhutakalam. Aham gatavarshe aham videshe asam. Vayam asma. Gatavarshe vayam karyale asam asma. Now we are not able to go anywhere. Asma, asti, present tense, vartamana kalah, asit bhuta kalah, ekavachanam, santi, vartamana kalah, bahuvachanam, asan, vartamana, bhuta kalah, bahuvachanam, asmi, tra, first person, uttama purushah, aham, asam, iti, vayam, smaha. Vayam smaha. Bahuvachanam. Present tense. Atra vayam smaha. Same way. Aham asam. Vayam asma. Ekavachanam. Bahuvachanam. Any doubts? Sandeham asti vatra?
No.
Vakyani vadati va? Prayatnam karoti va? Prayatnam kurvant.
Okay.
वाक्यानि वदतु भूतकाले आसीत् आसन् उपयोगं कुर्वन्तु किम् अभवत् वदति वा
आसीत्
आसीत् एक्साम्पल् ऐ टोल्ड् ह्यः सोमवासरः आसीत् गतवर्षं कार्यक्रमः संस्कृतकार्यक्रमः आसीत् देहलीनगरे आसीत्
Ma'am, can you explain once again? Your voice is very low.
Oh, my voice is low? Okay.
Yeah.
Astu. Pashyatu. Asti is a ekavachanam. Vartamanakalaprayogam. Pustakam asti, tatra asti, atra asti, wherever book is there, pustakam asti. Asit. Pustakam asit.
Parastaha.
पुस्तकम्
आसीत्
अनन्तरं सन्ति वर्तमानकालबहुवचनम् अत्र बालकाः विद्यालये सन्ति बालकाः विद्यालये आसन् भगिनी सुजया भगिनी म्यूट् अण्ड् रीड् सम्बडी इस् रीडिङ्ग् लौड्लि लेट् मी एक्स्प्लेन् फस्ट् पश्यतु आसीत् अण्ड् आसन् भूतकाल एकवचनम् अण्ड् बहुवचनं फार् एक्साम्पल् ह्यः विद्यालयः आसीत् ह्यः कार्यक्रमः आसीत् अनन्तरं ह्यः पुस्तकम् अत्र आसीत् यस्टर्डे ऐ सा द बुक् देर् इट् वास् देर् द बुक् वास् देर् पुस्तकम् अत्र आसीत् अद्य न अस्ति अत्र अद्य नास्ति आसन् बालकाः विद्यालये आसन् मार्च् मासे बालकाः मार्च् मासतः बालकाः गृहे एव आसन् फ्रम् मार्च् दे आर् अट् होम् ओन्लि बालकाः गृहे एव आसन् तत्र गृहे एव सन्ति एव सम्यक् किम् इत्युक्ते टिल् नौ दे आर् अट् होम् सो मे बि मार्च् पर्यन्तं टिल् मार्च् मार्च् पर्यन्तं बालकाः विद्यालये आसन् टिल् मार्च् देवेरन् स्कूल् इदानीं गृहे आसन् सम्यक् वा एकनिमिषम् अस्ति सन्ति आसीत् आसन् फर् थर्ड् पर्सन् बालकाः बालिकाः सर्वं
And Sandhi and Asan is one.
One means Asti Padasya Bhutakala Prayogam Asit. Sandhi Prayogasya Bhutakala Padam Asan.
Palam Asti Palani Sandhi. Palam Asit Palani Asan.
Same way Asmi Smaha Vartamana Kalasya उत्तमपुरुषः दट् इस् फस्ट् पर्सन् ऐ एण्ड् वि अहम् अस्मि वयं स्मः सेम् वे अहम् आसं वयम् आस्म वयं गतवर्षं वयं सर्वे बहिः आस्म लास्ट् इयर् वि आल् वेर् अट् औट्सैड् बिकास् इट्स् समर् हालिडेस् गतवर्षं वयं बहिः आस्म बहिः इस् औट्सैड् आस्म एतस्मिन् वर्षे गृहे स्मः दिस् इयर् वि आर् अट् होम् ओन्लि अहं शिक्षिका अस्मि भवन्तः छात्राः स्मः इदानीम् अस्तु वा गाट् इट् इदानीं वाक्यानि वदन्तु
किम् इस् इट् पासिबल् टु translate in English if possible these four words.
See, pashyatu, asti, it is there.
There, yeah.
Pustakam asti.
Yeah, there.
Pustakam atra asti, pustakam tatra asti, syute asti. Santi, pustakani santi, books are there. Balakaha santi, vidyalaye balakaha santi. Grihe janaha, grihe janaha santi. Same way, pustakam asit. Shaha pustakam asit. Yesterday book was there. Shaha pustakam asit. Asan, pustakani asan. Shaha pustakani atre asan. Book was there. Vidyalayaha asan. March masa paryantam, till March. Pustakani asan. Shamitam. Vidyalayaha asan. Schools, vidyalayah, asan, bahuvachanam. Asmi, I'm there. Aham asmi. Aham shikshika asmi. I'm a teacher. Aham asmi. Aham grihmi asmi. I'm a homemaker. Aham adivakta asmi. I'm a lawyer. Aham tantragnya asmi. I'm a software engineer. Aham vaidya asmi, aham mata asmi, aham putri asmi. I am daughter for someone. Asmi. Smaha, we all. Vayam sarve samskrita priyaha smaha. Vayam idanim samskrita varge smaha. Now we all are in samskrita class. Vayam, we. Vayam varge smaha. Asam. Hyaha. Vayam aham varge na asam. Yesterday I was not in the class. Hyaha aham varge na asam. Asma. Hyaha vayam varge na asma. Yesterday we all were not in the class. Atava atava means are. Hyaha vayam sarve mandire asan, devalaye asan, anything. Yeah, asam.
Okay.
We all were there. Asma, ha. Asma. Idani udaharanam vadantu.
For asit, can I tell?
Yeah, vadantu bhagini.
Bhavan parahyah grihe asit va.
Ha, samyak. Anya, yeah. We can go with one sentence so that all will get chance. Kopi asan vadati va bahuvachanam. Asan.
Vidyalaye pustakani asan.
Vidyalaye pustakani asan samyak. Asma. Asam. Asam.
Asam. Aham. Can you hear my voice?
Yeah, I can.
Yes. Aham. March masayam. Bharatam. Yeah. Asam. I want to say I was in India in March.
March masya aham Bharata deshe asam.
Asam.
There you can say, maybe you would have come with your family. March masya vayam Bharata deshe asma. Vayam asma aham asam.
Asam, yes.
Shitalam asan.
Kim?
Gatamase. Shitalam asan.
Shitalam asitiyava. These are all uncountable, no? Cold and all. So, asitiyava.
Mama kudumbe gatavashe tirupati mantire asma.
Mama kutumbam.
गतवर्षं तिरुपतिमन्दिरे आसम्.
बालकाः पर्याः कुत्र आसत्?
बालकाः ह्यः बालकाः कुत्र आसन्? सम्यक्. कोऽपि वदति वा? अग्रे गच्छामः वा?
अहं मित्रस्य गृहे आसम्.
सम्यक्. ह्यः अहं मित्रस्य गृहे आसम्. सम्यक्. अस्तु, इदानीं देर् इस् वन् सम्भाषणं. एकैकः एकैकवाक्यं पठतु. रमा भगिनी एकवाक्यं पठतु, अनन्तरं मधुरिका भगिनी, अनन्तरं शुभा भगिनी.
रङ्गनाथ ह्यः भवान् कुत्र?
उच्चैः किञ्चित् उच्चैः.
रङ्गनाथ ह्यः भवान् कुत्र आसीत्?
मधुरिका भगिनि.
अहं मित्रस्य गृहे आसम्.
तत्र कः विशेषः आसीत्?
इदानीम् अनु भगिनी, लक्ष्मी भगिनी, विजया भगिनी. वन् वन् लैन्.
मित्रस्य जन्मदिनम् आसीत्.
तत्र जयरामः, अनन्तः, रामकृष्णः इत्यादयः आसन् वा?
हा, पठतु भगिनी, लक्ष्मी भगिनी.
आं, सर्वे अपि आसन्.
हा, नेक्स्ट् उमा भगिनी, कौशल्या भगिनी.
भवतः गृहतः के के तत्र गतवन्तः?
वयं सर्वे अपि गतवन्तः आस्म.
हा, ज्योति भगिनी, सुजया भगिनी. अस्तु, हा, अभवत्. ओके, नेक्स्ट् वन्.
न
नेक्स्ट् रौण्ड् यु केन् रीड् देट्स् आल्. अहम् एक्स्प्लनेशन् ददामि प्रथमं. सो अत्र पश्यतु, सम्भाषणे ह्यः भवान् कुत्र आसीत्? मित्रस्य गृहे आसम्. तत्र कः विशेषः आसीत्? पश्यतु कथं हौ दे आर् यूसिङ्ग्. पश्यतु, मित्रस्य जन्मदिनम् आसीत्. मित्रस्य जानाति खलु, षष्टिविभक्ति, हिस् बर्थ्डे मित्रस्य. तत्र जयरामः, अनन्तः, नामं सर्वं, जयरामः, अनन्तः, रामकृष्णः इति सर्वं नामं नेम्. अनन्तरं सर्वे अपि आसन्. आम्, इत्यादयः एक्सेट्रा. आं, सर्वे अपि आसन्. पश्यतु अत्र सर्वे अपि आसन् बहुवचनं. बालकाः आसन्, फलानि आसन् इति बहुवचनम्. अनन्तरं भवतः गृहतः, फ्रम् युवर् हौस्, भवतः गृहतः, तत् गृहतः, विद्यालयतः, मङ्गलूरुतः इति लास्ट् वीक् वी हव् डन् नो, पञ्चमी विभक्ति, गृहतः वित्तकोशं गच्छामि इति. सो गृहतः, फ्रम् युवर् हौस्, के के तत्र गतवन्तः? हु आल् आर् वेन् देर्? वयं सर्वे अपि गतवन्तः आस्म. इदानीं वयं, सो आस्म यूसिङ्ग् इस् यूस्ड्. अवगतं वा? गाट् इट्? अस्तु, एकः हौ मेनि टैम्स् ऐ केन् आस्क्? एव्रि वन् शुड् हाव् द रेस्पान्सिबिलिटि. केन् यु आल् प्लीस् गो आन् म्यूट्? Once you read, go back on mute, please. Asto. Idanim eka kata asti. Kata patamaha. Idanim ke patati? Sujaya Bhagini patitavati va? You read, no? Sujaya Bhagini?
हलो
महोदय अहं पठामि वा शुभम्
पठतु भगिनि कथा अस्ति यु केन् रीड् टु सेण्टेन्स् एव्रिवन् केन् गो वित् टु
कश्चित् बालकः अस्ति तस्य नाम सुधीरः एकदा सुधीरः नगरं गच्छति
अरविन्द महोदय पठतु अरविन्द महोदय पठति वा
No, I was on mute, I'm sorry. Shirastrani krinati teshah vikran
tesham
vikranartha gramah gacchati marge aranyam asti sudhirah shrantah bhavati
paryah
vriksha
enough idanim tesham vikranartham gramam gacchati अस्तु राचना भगिनी अस्ति वा पठति वा अस्तु रमा भगिनी पठतु
सः वृक्षस्य अधः उपविशति
किञ्चित् उच्चैः लौड्लि
सः वृक्षस्य अधः उपविशति शिरस्त्रपेटिकां पार्श्वे स्थापयति तत्र एव निद्रां करोति
नेक्स्ट् मधुरिका भगिनी नेक्स्ट् शुभा भगिनी टु सेण्टेन्स् ईच्
तत्र केचन वानराः सन्ति एकः वानरः एकः वानरः सुधीरस्य समीपम् आगच्छति
नेक्स्ट् शुभा भगिनी
यु आर् गिविङ्ग् वन् मोर् चान्स्
या टु लैन्स् सेकेण्ड्री
ओके सः पेटिकां पश्यति उद्दाडयति एकं तिरस्त्रं गृह्णाति
पर्याप्तं अनु भगिनी लक्ष्मी भगिनी टु लैन्स् वाक्यद्वयं
शिरसि धारयति पुनः वृक्षस्य उपरि गच्छति उपविशति
लक्ष्मी भगिनी
अन्ये अपि वानराः एतत् पश्यन्ति ते अपि शिरस्त्रम् इच्छन्ति
विजया भगिनी उमा भगिनी टु लैन्
अतः अध आगच्छन्ति शिरस्त्राणि धारयन्ति वृक्षे उपविशन्ति
उमा भगिनी
सुधीरः जागरितः भवति पुरतः पश्यति एकम् अपि शिरस्त्रं नास्ति
अस्तु कौसल्या भगिनी
वानरान् पश्यति शिरस्त्राणि तत्र सन्ति
ज्योति भगिनी
सः दण्डं दर्शयति वानराः वृक्षशाखाः दर्शयन्ति
सुजया भगिनी
सुधीरः शिलाकाण्डं क्षिपति वानराः फलानि क्षिपन्ति
श्री भगिनी अस्तु शोभा भगिनी
क्षिपन्ति सुधीरः सर्वाणि सङ्गृह्णाति
शोभा भगिनी
शीघ्रम् अन्यत्र गच्छति
इदानीं पश्यतु एतत् कथा मे बि यु मोस्ट्लि नो अबौट् द स्टोरि यु गाट् द स्टोरि वेल् रीडिङ्ग्
मेडम् टु रीड्
2-3 sentences not read.
First paragraph you got.
Sudhirah upayam karoti vanarah anukaranashilah iti sah janati sah svakiyam shirastram kshipati. Till here was not read.
Okay. It was in my, it is in our book.
It is there, here also. अस्तु अरविन्द महोदय पठतु लास्ट् सुधीरः उपायं करोति
अनुकरणशीला इति सः जानति सः स्वकीय शिरस्त्रः भूमौ क्षिप्रति इट्स डिफिकल्ट टू प्रोनाउंस
क्षिपति
क्षिपति या
सर्वे 7 o'clock
सर्वे अपि वानराः शिरस्त्राणि क्षिपन्ति सुधीरः सर्वाणि संदाति
संगृह्णाति
दैट राइट
संगृह्णाति
संगृह्णाति शीघ्रं अन्यत्र गच्छति
अस्तु सो पश्यतु इदानीं कथा वयं जानीमः वि नो द स्टोरी वेल् रैट् द केप् इफ् यु थ्रो एनथिङ्ग् इट् जस्ट् वानराः कापि केट् परन्तु पश्यतु कथा कथामध्ये भाषा कथमस्ति इति संस्कृतभाषायां कथा कथं वदन्ति इति तत्र बहु सुलभवाक्यानि कश्चित् बालकः अस्ति सम् वन् बाय् सम् वन् I don't tell who it is. Kashchit means, that we'll read later. Kashchit Balakahasti. Tasya Nama Sudhiraha. Tasya Nama Kim Sudhiraha. Ekada once Sudhiraha Nagaram Gachati. Shirastrani cap. Kreenati is buying. Janati. Tesham Vikrayanartam to sell. Gramam Gachati. Marge Aranyam. Aranyam Vanam. Forest. सुधीरः श्रान्तः भवति इस् वेरि टयर्ड् सः वृक्षस्य अधः उपविशति अधः डौन् वृक्षस्य अधः शिरस्त्रपेटिकां दट् इस् द बाक्स् आफ् केप्स् इट्स् लैक् अ बक् बास्केट् आफ् केप्स् आर् समथिङ्ग् पार्श्वे स्थापयति पार्श्वे इस् नियर् बै तत्र एव निद्रां करोति ही स्लीप्स् देर् ओन्ली तत्र केचन वानराः सम् फ्यू वानराः सन्ति एकवानरः सुधीरस्य समीपम् आगच्छति सः पेटिकां पश्यति सीङ्ग् द बास्केट् उद्घाटयति इस् ओपनिङ्ग् उद्घाटयति एकं शिरस्त्रं गृह्णाति गृह्णाति स्टेकिङ्ग् गृह्णाति शिरसि धारयति धारयति पुटिङ्ग् आन् इस् हेड् पुनः वृक्षस्य उपरि गच्छति उपविशति इति पश्यतु सर्वं वेरि सिम्पल् वर्तमानकालकथा वि डिड् द आल् द क्रियापदं नो इट्स् आल् वर्तमान ऐ हेव् सेण्ट् इन् वाट्सप् आल्सो जस्ट् बिफोर् द क्लास् ऐ सेण्ट् वन् पेज् वेर् वि हेव् वर्तमानकाल भविष्यत् काल आल् कालस् ऐ विल् एक्स्प्लेन् वन् वन् नौ द फस्ट् इफ् यु सी युवर् वाट्सप् प्रथमस्तम्भं फस्ट् रो पश्यति सन्ति अस्ति गच्छति उद्घाटयति सर्वम् अस्ति एकवचनम् अत्र अन्ये अपि वानराः एतत् पश्यन्ति दे आल् आर् सीङ्ग् दट् ते अपि शिरस्त्रम् इच्छन्ति हा दे आर् सीङ्ग् वन् मङ्की इस् वेरिङ्ग् सो दे आल् वाण्ट् टु वेर् अतः इस् बिकास् अधः इस् डौन् अतः अधः बिकास् फर् देट् दे आर् कमिङ्ग् आगच्छन्ति अधः आगच्छन्ति दे आर् कमिङ्ग् डौन् फ्रोम् द वृक्षः शिरस्तानि धारयन्ति दे वेर् द केप् वृक्षे उपविशन्ति दे सिट् आन् द ट्री सुधीरः जागरितः भवति हि गाट् अप् पुरतः पश्यति हि सीङ्ग् द सैड् एकमपि शिरस्त्रं नास्ति वन् इस् आल्सो नाट् धेर् सः वानरान् पश्यति हि सा अप् and he understood okay vanaraha eva choritavantah iti shirastrani tatra santi he see all the caps there saha dandam darshayati prathamam dandam stick he shows the stick vanaraha vrikshashakaah darshayanti they show the branches सुधीरः शिलाखण्डं क्षिपति हि थ्रो द स्टोन् शिलाखण्डः वानराः फलानि क्षिपन्ति सो दे थ्रो द फ्रूट्स् सुधीरः उपायं करोति वानराः अनुकरणशीलाः मीन्स् दे जस्ट् फालो कापि गेट्स् दे फालो वाट् एवर् वी डु इति सः जानाति इति ईस् अ कनेक्टिङ्ग् वर्ड् सः स्वकीयं इस् इस् ओन् शिरस्त्रं भूमौ क्षिपति हि थ्रोस् देट् आन् द ग्रौण्ड् भूमौ क्षिपति सर्वे अपि वानराः शिरस्त्राणि क्षिपन्ति सुधीरः सर्वाणि सङ्गृह्णाति सङ्गृह्णाति इस् कलेक्टिङ्ग् गृह्णाति इस् टेकिङ्ग् सङ्गृह्णाति इस् कलेक्टिङ्ग् आल् शीघ्रम् अन्यत्र गच्छति सरलं वा कथा There are some word maybe new to you like vanaran pasyati the one or bhumau why bhumi is bhumau those kind of doubtful
atah means what atah adah
atah is because
bhumau kshipati matlab
ha wait adah is down upari adah visa
no atah means what before that that word
ha because for atah
acha
adya vargam asti atah aham yes ishi madhye login kritavati svakiyam is own
upavishanti sit no he sits
upavishati ekavachanam sit vanarah upavishanti bahuvachanam astva kare gachamah va ha vaitu
kripati
Shipati is throwing.
False.
अस्तु 11.3 अभ्यासं भूतकालस्य अभ्यासं कुर्वन्तु तत्र ऐ हेव् सेण्ट् थ्रू वाट्सप् तत्र भूतकालप्रयोगम् अपि अस्ति तत्र वदामि गतवान् चतुर्थस्तम्भं फोर्थ् रो गतवान् पठितवान् क्रीडितवान् तत्सर्वं भूतकालप्रयोगमस्ति अनन्तरं यदा लिखति तदा उपयोगं कुर्वन्तु वेन् यु रैट् यु केन् यूस् इट् हा नेक्स्ट् 11.3 इ अत्र पश्यतु समयम् अस्ति हा रसं नोट्स् तदपि गृहपाठमेव अहम् एकम् उदाहरणं वदामि सन्दीपः दशवादने विद्यालयं गतवान् सर्वं भूतकालरूपाणि हा दिव्या एकादशवादने क्रीडाङ्गणं गतवती यु हेव् टु रैट् लैक् दट् हा 11.3 गृहपाठम् अनन्तरं वयं भविष्यत्कालरूपाणि गच्छामः भविष्यत्कालः इस् फ्यूचर् I will go, I will do, I will see. All those things are there. Ekam aham vadami. You all have phone now? WhatsApp? Can you all see WhatsApp now?
Yes,
can you all see WhatsApp? Huh? Astu. Ha. Patati aham vadami? Patati va? Aham gachami, gachati iti vadami. See the second line I put one line long line that is bhavishyat kalam aham gachati iti vadami you all should tell us gamishyati make sure your surrounding is quiet then I will tell everything in vartamana kalah you have to repeat in bhavishyat kalah gachati
gamishyati
sarve unmute kurvanto sarve vadanto but make sure you are in a quiet place patati
patishyati
you all can unmute and tell
patishyati
ha patati
patishyati
kridati
kridishyati
vadati
vadishyati
shivati
pasyati
लिखति नयति पश्यति द्रक्षयति द्रक्षयति तत् इक्ष् हाफ् द्रक्ष्यति पृच्छति
प्रक्ष्यति
प्रक्ष्यति भवति
भविष्यति
मिलति
मेलिष्यति
त्यजति
त्यक्ष्यति
खादति
खादिष्यति
जानाति
ज्ञास्यति
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 ज्ञास्यति करोति
करिष्यति
शृणोति
श्रोष्यति
सम्यक् ददाति
दास्यति
प्रेषयति
प्रेषयिष्यति प्रेषयिष्यति
प्रक्षालयति
प्रक्षालयिष्यति
दट् इस् नाट् क्लियर् सम् प्राब्लम् देर् प्रक्षालयिष्यति
प्रक्षालयिष्यति
उत्तिष्ठति
उत्थास्यति
उपविशति
उपवेक्ष्यति
स्थापयति स्थापयिष्यति
स्मरति
पश्यतु देर् आर् सम् वर्ड्स् विच् आर् डिफ्रेण्ट् एक्साम्पल् गच्छति गमिष्यति बट् वेन् पिबति अण्ड् आल् कम् 12.2 पश्यतु पिबति पास्यति विच् यु हव् सीन् दे हव् गिवन् हियर् आस् विशेषरूपाणि विशेष there is a change. Oh, I hear lot of noise. Uma Bagini? Pibati, Pasyati, Dadati, Dasyati. Whatever we have done, it is given here. Likati, Lekishyati. So it is not Likati, Likishyati, Nasti, Lekishyati. Shrunoti, Shroshyati. Milati, Melishyati. अनन्तरं वि हव् सीन् त्यजति अण्ड् आल् शक्नोति शक्ष्यति उपविशति उपवेक्ष्यति उत्तिष्ठति उत्थास्यति गृह्णाति गृहीष्यति मोस्ट्लि इन् वर्तमानकालप्रयोगः दयिष्यति विल् कम् इन् बिट्वीन् द थी अण्ड् धातु धातु मीन्स् द संस्कृत वर्ड्स् आल् द संस्कृत वर्ड्स् आर् काल्ड् धातु देर् आर् अरौण्ड् 2000+ धातुस् From the dhatu, every word is derived. For example, gam iti eka dhatu asti. Gam dhatu. From there, gachati is a present tense form. Gatavan is a bhutakala form. And gamishyati is a bhavishyakala form. So like that, they are all derived from different form. For example, there are 10 lakaras, 10 basic tenses. Lat lakara, lot lakara, I think you would have read it. Lang lakara, lang means bhutakalaha. Lat is present tense. Lrut is what we are reading. Vartamana kalaha is called lrut. Like that, totally 10 ghanas are there. 10 lakaras are there. Totally 10 lakaras, sorry, not ghanas. 10 lakara are there. So every lakara, these words will be different. Different kind of forms will come. Gachati will be gamishyati. Gatavan. Then there ekavachanam, dvivachanam, bahuvachanam. For example, in present tense itself, gachati ekavachanam, third person. Gachasi, madhyama purusha, second person. Gachatu is also agnya prerana, applicable for second person. Again, gachami. So there are four basic forms, then dvivachanam, bahuvachanam. Like that, there are around hundreds of forms, around 180 forms. For lakara. And then there are so many other forms, but basic we see like this. So in that Bhavishyakala Rupa, everywhere it will come as ishyati, ishyati. मेलिष्यति लेखिष्यति इति इष्यति फार्म् विल् कम् इन् बिट्वीन् एण्ड् देर् आर् सम् एक्सेप्शन् रूल् देर् फार् एक्साम्पल् पृच्छति प्रक्ष्यति क्ष्यति इति आगच्छति त्यजति त्यक्ष्यति इति आगच्छति शक्नोति शक्ष्यति वै दीस् थिङ्ग्स् आर् कमिङ्ग् दट् वी विल् रीड् लेटर् देर् आर् फार्मुला सूत्रं फार् एव्रिथिङ्ग् पाणिन्याः सूत्रम् अनन्तरम् अग्रे गच्छामः यदा तदा पठामः नौ यु जस्ट् मेमरैज् दीस् वर्ड्स् दट्स् आल् हा यु डोण्ट् नीड् टु नो हौ इट् केम् जस्ट् रिमेम्बर् दीस् वर्ड्स् एण्ड् वेन् यु डू युर् होम्वर्क् यु विल् अण्डर्स्टाण्ड् बै मोर्
भगिनी वन् डौट्
हा वदतु
वाट् आर् दोस् 190 फार्म्स् समथिङ्ग् यु मेन्शन्ड्
दट्स् वाट् ऐ सेड् नो लकारः देर् आर् टोटलि 10 टेन्सस् बेसिक् टेन्स् There okay. are more tenses, but basically it is tenses, like present tense, past tense. If you take only present tense, maybe you would have done in the school, patati, patataha, patanti, patasi, patataha, patata, patami, patava, patamaha. This is a lat lakaraha, present tense form. This is totally 9. The one word, gachati, is coming in 9 types. 9 type of words are coming. Got it?
Mm. N3 Purusha. Pratama Purusha, Pratyama Purusha. Nine. Totally three nine.
For example, the same way, there are totally basic 10 lakaras. So totally 90. Other than 90. That, other forms are there. Like, Gatavan, Gatavati is not countable in lakaraha. They are coming differently as Tavatu iti eka prayoga hasti. Anantram Gatva, Pitva, we will read different, apart from this 10, we will read other forms also. So one single word, the Dhatu name is Gam. One Dhatu Gam will come in many, 18 is just an example I said, there are many other forms. Then we have Dhatu in Parasmaipati, Atmanepati. Whatever Dhatu we are seeing, only Parasmaipati Dhatu. Then Atmanepati Dhatu, Vande, other dhatus are there, many other dhatus are there. Yes, just for an example,
so
don't get
sorry. Yeah, this list now pibati pachyati, this is singular past tense.
Oh, present, bhavishyakala, future
present.
Bhavishyakar, oh, okay. But it is for the single person, isn't it? It's not for the Bahuvachana.
Yeah, then we will, Then we will read.
Okay. Yes, okay.
Now first we'll get familiar with the Ekavachanam. Ekavachanam. And then the Bahuvachanam will be same like Vartamana Kalam. Gachati, Gachanti. Here also, Gamishyati, Gamishyanti.
Okay.
It is very simple. Same way, Gamishyami. I, aham, Gamishyami. Gamishyamaha. Bahuvachanam is same like a present tense. That we will see. When we go, we will read. Next, Sambodhana Rupani. When the exercise comes, we will do this exercise. Sambodhana Rupani. Sambodhanam means the way we call. For example, I always don't need to tell Ramaha, Ramaha. Ramaha is the return form. In every language, the way we what, how we write and how we talk will be different, no? Same way here, only the calling pattern will differ. That is called Sambodhana, the casual way. Ramaha is there. Every time I don't need to say Ramaha, Ramaha. I can simply say Rama, Krishna, Govinda. So like that I can, Harihi, I can say Hare, Guru, Raja. Raja is there, Rajan. Like that every Sambodhana Vibhakti forms will be a casual way of calling. For Strilingam, Anantram, for Pulingam. Rama, Krishna, Govinda, Hare, Guru, Rajan, Maharaja. Mahodaya. For example, Mahodayaha, when you write, you should write it as Mahodayaha. But when I call, I can simply call Mahodaya. Pita, Pitaha. I can call it as Pitaha.
अथवा तातः आल्सो, तातः मीन्स् पिता, ताता ऐ केन् काल् ताता. देन् सीता, सीता स्त्रीलिङ्गं विल् बि ए, सीते, अहं सङ्गीते, लैक् देट्. रमा, रमे. मान्या, मान्या मीन्स् मेडम्, मान्ये. गौरी, ऐ डोण्ट् नीड् टु एव्री टैम् काल् इट् अस् गौरी, गौरी, गौरी इस् फैन्. दि हरस्वा इस् फैन्. भगिनी, भगिनी इस् फैन्. लक्ष्मीः, लक्ष्मी ह्रस्वा. अम्बा, अम्ब, वेन् यु काल् इट् इस् अम्ब, अम्बा नास्ति. माता अस्ति, तत् मातः, बट् इन् जनरल् वि काल् इट् अस् माता, माता ओन्लि. सो दीस् आर् आल् काल्ड् सम्बोधनरूपाणि. एनी डौट् हियर्? Nothing big, it's very simple way of calling. If you want to call someone whose name you don't know, just pass, who's just going, you want to call, then you can call him as Boho. Boho atra agacha. Somebody is selling something, I want to call him, then we can simply call it as Boho. And I don't know the name, and a casual way of calling Boho.
Bhagini, this boho is for applies for pulling and strilinga.
Pullinga. Ah,
Sita is a strilinga form, no?
No, no. Boho we can call even a female also.
No. Boho we call generally, yeah, anything, anyone can be called, but in general it is for applicable for men. Boho.
Okay. If late,
if ladies, is still Bhagini only.
Okay.
Manye, Arye, if some elder person is going, then you can call them as Manye, or you can call them as Arye. Arye, Manye. Agre gacha mahava, can we move? Any doubt? The Bhavishya Kala, we will read again. We'll do
exercise. Arye for a gent or a lady?
Kim? Arye, va? Arye, Strilinga padam. Arya. Arya, generally, Arya is a pullinga padam. Arya is strilinga.
Okay. And what is the female version of Mahodaya?
Mahodaya.
Mahodaya.
Dirga, Mahodaya.
Okay.
Mahodaya, ha? Mahodaya. गच्छामः वा अग्रे?
Yes.
आम् महोदय.
एकनिमिषम्, ऐ जस्ट् गो डौन्.
Bhagini, that boho is balakasya bo or ba or bhu bha?
Bho, bho, bha, bha. Second bha. Bha.
Bha. Okay.
Boho.
Balu.
Boho. Ah, 13.2, punaha griha karyam. That you can use the sambodhana vibhakti rupam and fill it. Like Bhagini asti, Bhagini atra agachatu. मान्ये कृपया एतत् पाठयतु. एवं यु केन् सी द अबौट् टेबल् एण्ड् फिल् दिस्. लेट्स् मूव् टु 14.1. यदि तर्हि, यदि तर्हि, वेन् वि यूस् इट् इन् सेण्टेन्स्, वाक्यं, दीर्घवाक्यं. सी, टिल् नौ वि हव् सीन् बालकः अत्र अस्ति, तत्र अस्ति, बालकः आगच्छति, आगतवान्, आगमिष्यति. Now, when you want to use two sentences, you need to use these kind of words. We'll, first one is yadi tarhi, then we see yata tata, yada tada, many things we'll see. Yadi tarhi, pashyatu, vidyut asti, deepah jvalati. There are two different sentences. Vidyut asti, vidyut is current, electricity. Electricity asti, deepah jvalati, light is on. Anantaram, if I wanted to tell in one sentence, yadi vidyut asti tarhi deepah jalati. Since the light is electricity is there, tarhi deepah jalati. It's like as so, as current is there, so the light is on. Snanam na karoti kshiram malin shariram malinam bhavati.
Malinam bhavati.
Yadi snanam na karoti shariram malinam bhavati. Snanam na yadi snanam na karoti shariram malinam. That is what do you say? If you don't take bath, you won't be clean. Malinam bhavati. Malinam is low quality. Malinam bhavati. Next, karyalayasya viramah asti chalanachitram pashyami. So, yadi karyalayasya viramah asti tarhi chalanachitram pashyami. If the office is holiday, then I will see chalanachitram pashyami. Anantram, atmavishwasah asti sarvam sulabham bhavati. Yadi atmavishwasah asti tarhi sarvam sulabham bhavati. Next word, kopi prayatram karoti va? Sarve satkaryam kurvanti deshasya unnatihi bhavati.
Shall I try?
Yeah.
Yadi sarve satkaryam kurvanti tarhi deshasya unnatihi bhavati.
Anya kopi.
Yadi moolyam nyunam asti tarhi phalani krinami.
Moolyam is cost. Nyunam less.
Right.
If the cost is less, then I will buy the fruits.
Nyunam asti tarhi phalani krinami.
Samyak. Anya. Next.
Bhagini, may I?
Yadi.
Yadi bhavati.
पठतु भगिनि चिन्ता मास्तु पठतु
यदि भवती विपणिं गच्छति तर्हि अहमपि आगच्छामि.
नेक्स्ट् अनु भगिनि.
यदि भवान् न पठति तर्हि परीक्षानाम् उत्तीर्णः न भवति.
परीक्षायाम्
उत्तीर्णः न भवति.
यदि छात्राः न सन्ति तदि कथं पाठं करोमि.
सम्यक्. नेक्स्ट्.
यदि लोकयानं वेगेन न गच्छति तर्हि समये तत्र न प्राप्नुमः.
आम्, पश्यतु एतत् नूतनवाक्यं किञ्चित् प्राप्नुमः. लोकयानं वेगेन, इफ् द बस् इस् नाट् गोयिङ्ग् फास्ट् समये टैम्लि तत्र न प्राप्नुमः. प्राप्नोति प्राप्नोमि इस् रीचिङ्ग्. पत्रम् अहं न प्राप्नोमि. ऐ डिण्ट् गेट् अ लेटर्. अहं लोकयानं न प्राप्नोमि. ऐ डिण्ट् गेट् द बस्. प्राप्नोमि बहुवचनं प्राप्नुमः समये. तत्र वयम् इति एकवाक्यम् अस्ति. वयम् इस् इण्डैरेक्ट्. वयं समये तत्र न प्राप्नुमः. Because vayam is there indirectly, prapnumaha asti. Atava prapnoti, third person. Prapnuanti, pahuvachanam. Prapnomi, first person. Uttama purushaha. Prapnumaha, bahuvachanam. Astu. Next, there are some new words are given. Cha, eva, iti,
hapi. महोदय, लोकयानं वेगेन न गच्छति तर्हि समये तत्र
इफ् यु वाण्ट् टु से समवन् समये, पुरुषः समये न प्राप्नोति. समबडी एल्स्, बालकः पुरुषः.
Nitin, what's the meaning of vipanim?
Vipani is aapanam, shop. Aapanam, vipani, shop.
Okay. Thank you. Yeah.
Anantaram uttirnaha pass. Pariksayam uttirnaha pass. Avatiranam fail. Uttiranam avatiranam. Anya vakyam. Cha eva iti api. Cha eva iti api. Atra eka sambhashanam asti. सम्भाषणद्वारा पश्यामः भोः मित्र कुत्र गच्छति भवान् भोः मित्र कुत्र गच्छति प्रवासार्थं गच्छामि प्रवासार्थं जस्ट् रोम् अराउण्ड् के गच्छन्ति अहं श्रीनिधिः भास्करः विमला च गच्छामः अत्र पश्यतु च च इस् एण्ड् And cha, how much ever you want to tell, you can tell the words and finally you can add one cha. Cha. I will give more examples later. Mekala api agachami iti uktavati. Api also. Mekala api, she also. Agachami iti. Iti is said. Like that she said iti uktavati. Sa agachati va na va iti aham na janami. I don't know whether she comes or not. Iti. Sa na agachati eva. Eva. She doesn't come. Here eva is like only. She didn't come only. Bhavan katam janati. How do you know? Tasyaha grihe kopi. Ko api. Tatra. Ko api. Sam. कार्यक्रमः अस्ति अतः बिकास् अतः सा प्रवासार्थम् आगन्तुं न शक्नोति देर् आर् सम् वर्क् इन् हर् हौस् कार्यक्रमः सम् फङ्क्षन् सो प्रवासार्थम् आगन्तुं न शक्नोति इट् इस् नाट् पासिबल् फ़र् हर् टु कम् एवं वा कः कार्यक्रमः तस्याः भ्रातुः जन्मदिनं हर् ब्रदर्स् जन्मदिनं बर्थ्डे तर्हि सा न आगच्छति एव मीन्स् शी विल् नाट् कम् ओन्लि वयं गच्छामः वि केन् गो सो अत्र नूतनवाक्यं किं किम् इत्युक्ते च एव इति अपि ऐ विल् गिव् सम् एक्साम्पल् अद्य वर्गे वयं भविष्यकालरूपं भूतकालरूपं च पठितवन्तः वयं वर्गे भविष्यकाल भूतकाल च पठितवन्तः अहं काफी चायं च इच्छामि ऐ लैक् बोत् काफी अण्ड् टी अद्य मम गृहे मम पुत्री पुत्रः अपि क्रीडितवन्तः दे बोत् प्ले Cha. Cha is clear? Any doubt? Cha always comes at the end. You can add two words, three words, four words, but one cha is enough. Astu. I perceive no doubts. Next, we'll go to Eva. Eva. Eva is only. Aham. उपवासदिने फलानि एव खादामि ऐ टेक् ओन्ली फ्रूट्स् आन् फास्टिङ्ग् डेस् अहं सर्वदा वाहनेन एव गच्छामि ऐ आल्वेस् गो बै वेहिकल् ओन्लि अहं भानुवासरे गृहे एव भवामि सण्डे ऐ विल् बि अट् होम् ओन्लि इदानीं वयं सर्वे भारतदेशं पूर्णदेशं गृहे एव भवामः नौ वि आल् आर् अट् होम् ओन्लि गृहे एव भवामः ओके अस्तु नौ वि टेक् ओन्लि च एण्ड् एव यु केन् मेक् युवर् ओन् सेण्टेन्स् जस्ट् मेक् वन् सेण्टेन्स् एण्ड् गिव् स्पेस् फ़र् अदर्स् च उपयोगं करोति वा फस्ट् रौण्ड् Anything, cha or eva. उपयोगं करोति
मम गृहे गृहे गृहणार्थं कार्यार्थं न गृहपाठं न करोमि अहम् उत्तरमेव लिखितवती
हा सम्यक्
उत्तरमेव लिखितवती Or someone can say that Bhavan eva patatu. Someone is reading. You are asking the same person to read the next one also. Bhavan eva patatu.
Samyak. Srinidhi. Anantaram. Anya copy vadati va?
Shukaha palameva kadati.
Samyak. Samyak. Shukaha palani eva kadanti.
फलानि एव खादन्ति
आम्
कनरि
हा
अहं भानुवासरः शनिवासरः च ग्रन्थालयं गच्छामि
हा सम्यक् अहं शनिवासरः भानुवासरः च विल् बि अट् द एण्ड्
च
लाक्डौन् समये सर्वे गृहम् एव वसन्ति
गृहे एव भवन्तः अनन्तरं
रामः सीता लक्ष्मणः च वनं गतवन्तः
अहं मराठीभाषा संस्कृतभाषा हिन्दीभाषा च पठामि
च जानामि
जानामि
I know.
Okay. I can read. If I can read then?
Patami.
Patami. Okay.
Patami is also Janami, Janami only. That is, you can Patitam Janami. I know to read.
Achha. Okay.
But initially, right?
Vatu.
Mama Grihe, Amrafala Vriksham, Narikela Vriksham cha Asti.
Santi. Haan. अरविन्द् महोदय
अहं मुम्बै नगरे पुणे नगरे च गतवान्
मुम्बै नगरं पुणे नगरं च गतवान् नगरं च गतवान् अस्तु एव वदति वा एव उदाहरणम्
अहं मुम्बै नगरे एव गतवान्
मुम्बै नगरम् एव गतवान् नगरम् एव गतवान्
अहं प्रतिदिनं गृहं कार्यं भ्रमणार्थम् अर्चितुं च एवं करोमि
पुनः वदतु
अहं गृहं प्रतिदिनं गृहं कार्यं भ्रमणार्थम् अर्चितुं च एवं करोमि I every day do housework, walking and prayer only.
Astu. But usually eva is applicable when you do one work.
Okay. Aham pratidinam karyam ekam karomi.
Aham pratidinam.
Eva means only means?
Eva
is one. Eva means only?
In general. See, if you, Anubhagini, if you want to tell that you are doing only your routine work, no extra thing, then aham pratidinam mama dinachari eva karomi, that is my routine. Dinachari eva karomi. Dinachari karyani eva karomi. I do only my routine work.
Okay.
Next. Iti api. Iti, pashyato, iti, like this, or aham agachha, yesha agachha tiva, na va iti na janami. I don't know whether she comes or not. Iti is a connecting word, though I cannot tell it exactly in English, but iti is a connecting word. अपि आल्सो अहं पश्यतु अद्य वर्गम् अस्ति इति अहं न सूचितवती. ऐ डेण्ट् इन्फार्म् एस्टडे, ऐ डेण्ट् सेण्ड् मेल्, अहं विस्मृतवती, ऐ फर्गाट्. वर्गम् अस्ति इति ह्यः अहं न सूचितवती, प्री क्लास् मीटिङ्ग् मेल् अहं न सूचितवती, सूचनम् इन्फार्मिङ्ग् न सूचितवती इति. गृहपाठं कुर्वन्तु इति अहं वदामि, ऐ से डू युवर् होम्वर्क् इति अहं वदामि. अपि अहं काफी इच्छामि, क्षीरम् अपि इच्छामि. इट्स् जस्ट् अ रीप्लेस्मेण्ट् फर् च. अरविन्द् महोदय उक्तवान् अहं मुम्बैनगरं पूनानगरं च गतवान्. अहं मुम्बैनगरं गतवान्, पूनानगरम् अपि गतवान्. तत्र एकं प्रथमं, एण्ड् देन् वेन् यू से अपि इस् आल्सो. अहं संस्कृतं पठामि, कन्नडा भाषा अपि पठामि. अपि इति इदानीं वाक्यानि वदन्ति वा? एकैकवाक्यं वदन्तु, एकैकः इति अपि.
May I try, ma'am?
Yeah, yeah.
मम पुत्री वदति अहम् अहम् अद्य आम्रफलानि एव खादामि इति.
हा सम्यक्, हा हा उत्तमम्. अग्रे अपि
बालकः बालकः मैसूरु गतवान् इति अहं जानामि.
हा सम्यक्,
धन्यवादः.
अन्य कोऽपि वदति वा?
कनेट
या
श्वः अहं मित्रस्य गृहं गच्छामि, पाठशाला अपि गच्छामि.
हा सम्यक् उत्तमम्. नौ वी हेव् डन् भविष्यकालपाठः. सो वेन् यू से श्वः अहं विद्यालयं गमिष्यामि, मित्रगृहम् अपि गमिष्यामि.
श्वः
गच्छामि, श्वः गमिष्यामि. अस्तु, कोऽपि अन्ये प्रयत्नं कुर्वन्ति वा? रमा भगिनी, कौशल्या भगिनी, ज्योति भगिनी,
श्वः
शोभा भगिनी,
श्वः विरामदिनम् इति अध्यापिका सूचितवती.
हा सम्यक्, हा अन्य
भगिनी अहं नृत्यं करोमि, अपि कार्यं लिखामि.
नित्यं करो नृत्यं करोमि, पाठम् अपि लिखामि.
अपि कार्यं लिखामि
न कार्यं गृहपाठं अपि काव्यम् अपि लिखामि.
काव्यम् अपि लिखामि.
अद्य अहं मन्दिरं गच्छामि, ग्रन्थालयम् अपि गच्छामि.
मधुरिका भगिनी, रमा भगिनी, उमा भगिनी, केन् यू प्लीस् गो आन् म्यूट्, यु डोण्ट् आन्सर्. वदतु रमा भगिनी.
Bhagini, I am getting a bit confused between api and iti usage.
Api?
And iti, how to use it.
Not quite Pashito, following. Api is also, just like cha is and, right? Api is also. Aham, samskrita vargam agachami, griha patam api likami. I come to the class, also I do my homework. Api.
So when it's you use this in a sentence,
yeah, can you tell one sentence?
Aham griha karyam
kinchit loudly.
अहं गृहकार्यं करोमि, संस्कृतं पठामि.
That will come at the end. संस्कृतम् अपि पठामि.
संस्कृतम् अपि पठामि.
Can I tell one sentence?
Yeah, yeah.
सीता परश्वः मम गृहम् आगच्छामि इति उक्तवती.
आगमिष्यामि इति उक्तवती.
आगच्छामि इस् ओके और् आगच्छति.
परश्वः इस् आगमिष्यामि वर्तमान भविष्यकालं फ्यूचर्.
आगमिष्यामि.
सिन्स् वी हेव् डन् द लेसन् ऐ वाण्ट् टु स्ट्रेस् भविष्यकाल.
ओके,
सो प्राक्टिस् उक्तवती. मद्रिका भगिनी प्रयत्नं करोति वा?
अहम् आपणे फलानि क्रीडामि. कन्दुकम् अपि क्रीडामि.
सम्यक्. फलानि क्रीणामि, शाकानि अपि क्रीणामि. वेजिटेबल्स्, ऐ बै फ्रूट्स् आल्सो द वेजिटेबल्स्. कन्दुकम् आल्सो गुड् बाल्. अस्तु, शुभा भगिनी.
एक्साम्पल् फार् अपि, पुनरपि जननं पुनरपि मरणं.
आम्, सम्यक्.
केन् ऐ से
या
श्वः अहं चलनचित्रं द्रक्ष्यामि, अपि गृहकार्यं करिष्यामि.
सम्यक्, बट् अपि इट्स् बेटर् टु कीप् इट् फोर् द क्रियापदम्. गृहकार्यम् अपि करोमि, देर् द स्ट्रेस् विल् बि देर्. चलनचित्रं द्रक्ष्यामि, गृहकार्यम् अपि करोमि, करिष्यामि.
ओके, ओके,
सम्यक्. मेबि यु केन् जस्ट् रैट् युवर् ओन् सेण्टेन्सस्. च एव इति अपि एण्ड् यदि तर्हि उपयोगं कृत्वा, अपार्ट् फ्रम् द बुक् वाट् एवर् द सेण्टेन्स् आर् देर् यु केन् रैट् युवर् ओन् थिङ्ग्स्. अस्तु, इदानीं जस्ट् बिफोर् ऐ इन्स्टेड् आफ़् मूविङ्ग् टु द नेक्स्ट् टापिक्, ऐ वाण्टेड् यू टु मेक् सम् सम्भाषणं. सिन्स् अवर् फैनल् गोल् इस् टु डू संस्कृतसरलसम्भाषणम्, एण्ड् वि आर् जस्ट् इन् टच् बेस् इन् एव्री वीक् ओन्ली. इट् इस् नाट् लैक् अ सम्भाषणशिबिरं विच् वि अटेण्ड् एव्री डे. Just for the touch. So we will do from the next class. Maybe in the beginning of the class. I don't know who's on speaker. Astu, aham sarvan mute karomi. So from next class, since we have also done half of the book, you know the basic words, like you know vardhamana kalam, you know bhutakala, you know bhavishyakala, and you know the in between sentence like cha eva. So let's make from next week, let's make just 4-5 sentence in the beginning. It can be anything. For example, gata saptahe, last week what are all I did, aham चित्रं, लैक् अनुभगिनी टोल्ड् ऐ सा मूवी, अहं चित्रं दृष्टवती, गृहकार्यं कृतवती, मित्रं मिलितवती, संथिङ्ग् एनिथिङ्ग् लैक् अद्य अहं पूरिका खादामि, ऐ ईट् पूरि टुडे. एनी टापिक् केन् बि एनिथिङ्ग्. जस्ट् टेक् 4-5 सेण्टेन्स्, मेक् 4-5 सेण्टेन्स्. मेबि इनिशियलि यु केन् रैट्. Then naturally the practice will come. You can just do the sarala sambhashanam. And just one tip I want to give before doing, before talking, do not translate. Just start thinking from Sanskrit only. So if you do so, you will not find it difficult. If you start your thinking in Sanskrit itself, you might not find it difficult. So from next week, first 5-10 minutes, we will spend in sambhashanam, and I want each one to participate. It's not that one person is talking and others are hesitating to talk, not like that. Just raise your name, tell your name and how we did today. We will do sambhashanam. It's okay, it can be wrong, it can be absolutely right, grammar part, that's okay. just we will talk, though it is wrong or right. First initial two classes come with preparation. At least prepare 10 sentences so that you can talk 5 sentences. Astva?